प्रीत्या दैत्यः तव तनुमः प्रेक्षणात् सर्वथापि त्वाम् आराध्यन् अजिता रचयन् अञ्जलिं संजगाद मत्तः किं ते समभिलषितं विप्रसूनो वदत्वं वित्तं भक्तं भवनम् अवनीं वापि सर्वं प्रदास्ये ताम् अक्षीणां बलिगिरम् उपाकर्ण्य कारुण्यपूर्णोऽपि अस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् भूमिं पादत्रयपरिमितां प्रार्थयामासिद्धत्वं सर्वं देहि इति तु निगदिते कस्य हास्यं न वा स्यात् विश्वेशं मां त्रिपदम् इह किं याचसे बालिशस्त्वं सर्वां भूमिं वृणु किम् अमुनेति आलपत् त्वां सदृप्यन् यस्माद्दर्पात् त्रिपदपरिपूर्त्यक्षमः क्षेपवादान् बन्धं चासौ अगमत् अत दर्होऽपि गाढोपशान्त्यै पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्येत् इत्युक्तेऽस्मिन् वरद भवते धातुकामेऽथतोऽयं दैत्याचार्यः तव खलु परीक्षार्थिनः प्रेरणात्तं मामादेयं हरिरयमिति व्यक्तमेव आबभाषे याचत्येवं यदि स भगवान् पूर्णकामोऽस्मि सोऽहं दास्याम्येव स्थिरमिति वदन् काव्यशब्दोऽपि दैत्यः विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं चित्रं चित्रं सकलमपि सः प्रार्पयत् तोयपूर्वं निःसन्देहं दितिकुलपतौ त्वयि अशेषार्पणं तत् व्यातन्वाने मुमुचुः ऋषयः सामराः पुष्पवर्षं दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजाम् उच्चैरुच्चैः अवृधत् अवधीकृत्य विश्वाण्डभाण्डं त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ कुण्डीतोयैः असिचत् अपुनात् यज्जलं विश्वलोकान् हर्षोत्कर्षात् सुबहुनृते खेचरैः उत्सवेऽस्मिन् भेरीं निघन् भुवनमचरत् जाम्बवान् भक्तिशाली तावद्दैत्यास्तु अनुमतिं मृते भर्तुः आरब्धयुद्धाः देवोपेतैः भवदनुचरैः सङ्गताः भङ्गमापन् कालात्मायं वसति पुरतः यद्वशात् प्राग्जिता स्मः किं वो युद्धैः इति बलिगिरा तेथ पातालमापुः पाशैर्बद्धं पतगपतिना दैत्यमुच्चैः अवादीः तार्तीयीकं दिशमम पदं खिन्न विश्वेश्वरोऽसि पादं मूर्ध्नि प्रणय भगवन् इत्यकम्पं वदन्तं प्रह्लादस्तं स्वयमुपगतः मानयन् अस्वती त्वां दर्पोच्छित्यै विहितमखिलं दैत्य सिद्धोऽसि पुण्यैः लोकस्तेऽस्तु त्रिदिव विजयी वासवत्वञ्च पश्चात् मत्सायुज्यं भज च पुनरिति अन्वगृह्णाः बलिं तं विप्रैः सन्तानितमखवरः पाहि वातालयेशा ॐ तत्सदिति श्रीमन्नारायणीये एकत्रिंशं दशकं समाप्तं श्रीहरये नमः रमा रमणगोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।